दिनमपि रजनी सायं प्रातः शिशिरवसन्तौ पुनरायातः काल क्रीडति गच्छत्यायुः तदपि न मुञ्चति आशावाय भज गोविन्दम् भज गोविन्दम् भज गोविन्दम् मूढमते प्राप्ते सन्निहिते मरणे नहि नहि रक्षति दुःखरूयकरणे
भज गोविन्दम्
अग्रे वन्नी पृष्ठे भानु रात्रौ चिबुक समर्पित जानु करतल भिक्षा तरु तद्वासः तदपि न मुञ्चति आशा पाश
भज गोविन्दम्
सक्तः तावन्निज परिवारो रक्तः पश्चाद्धावति जर जर देः वार्तां पृच्छति गोपीन गे
भज गोविन्दम्
जटिलो मुंडी लुंजित केशः काशायांबर बहुकृत वेशः पश्यन्नपि जन पश्यति लोको युदर निमित्तं बहुकृत शोक
भज गोविन्द
मुरारी समर्चाम तस्य यमः किं कुरुते चर्चाम
भज गोविन्दम् भज गोविन्दम्
अंगं गलितं बलितं मुण्डं दशन विहीनं जातं तुण्डं वृद्धो याति गृहीत्वा दण्डं तदपि न मुञ्चति आशापिण्डं
भज गोविन्दम्
तस्तावत् चिन्ता मा लग्नः
भज गोविन्दं भज गोविन्दं
पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् इह संसारे खलु दुस्तारे कृपया पारे पुनरपि पक्षः पुनरपि मासः पुनरप्ययनं पुनरपि वर्षं तदपि न मुञ्चति आशामर्षम्
भज
गते कह काम विकार शुष्के नीरे कह का सार नष्टे द्रव्ये कह परिवारो ज्ञाते तत्वे कह संसार विचारय वारं वारं
भज गोविन्दं भज गोविन्दं
कस्त्वं कोऽहं कुत आयातः कामे स्वप्न विचारम्
भज गोविन्दं भज गोविन्दं
येयं गीता नाम सहस्रं येयं श्रीपति जस्रम् नेयं सज्जन संगे चित्तं देयं दीन जनाय च वित्तम्
भज
यावज्जीवो निवसति देहे कुशलं तावत् पृच्छति गे गतवति वायौ देहापाये भार्या बिभ्यति तस्मिन् काये
Thank you.
Thank you.